जातु यमयातना भवति ते पयः पानातः
अष्टकमिदं मुदा पठति सूर सूर